व्रजेश्वरः शौरिवचो निशम्य समाव्रजन् अध्वनिभीतचेताः निष्पिष्टनिःशेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्त्वां निशम्य गोपीवचनात् उदन्तं सर्वेऽपि गोपाः भयविस्मयान्धाः त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तं त्वत्पीतपूतस्तनतच्छरीरात् समुच्छलन् उच्छतरो हि धूमः शङ्कामधात् आगरवः किमेषः किं चान्दनो गौल्गुलवोऽथवेति मदङ्गसङ्गस्य फलं न दूरे क्षणेन तावत् भवतामपि स्यात् इत्युल्लपन् वल्लवतल्लजेभ्यः त्वं पूतनाम् आतनुथा सुगन्धिं चित्रं पिशाच्या नहतः कुमारः चित्रं पुरैवाकथि शौरिणेदम् इति प्रशंसन् किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् दिने दिनेऽथ प्रतिवृद्धलक्ष्मीः अक्षीणमङ्गल्यशतो व्रजोऽयं भवन्निवासात् अयि वासुदेव प्रमोदसान्द्रः परितो विरेजे गृहेषु ते कोमलरूपहास मितः कथा सङ्कुलिताः कमन्यः वृत्तेषु कृत्येषु भवन्निरीक्षा समागताः प्रत्यहम् अत्यनन्दन् अहो कुमारो मयि दत्तदृष्टिः स्मितं कृतं मां प्रतिवत्सकेन यह्येहि माम् इत्युपसार्यपाणिं त्वयीश किं किं न कृतं वधूभिः भवद्वपुस्पर्शनकौतुकेन करात्करं गोपवधूजनेन नीतस्त्वम् आताम्रसरोजमाला व्यालं बिलोलम्बतुलाम् अलासीः निपाययन्ती स्तनम् अङ्कगं त्वां विलोकयन्ती वदनं हसन्ती दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे गदान् माम् ॐ तत्सदिति श्रीमन्नारायणीये एकचत्वारिंशं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।